अथ श्रीगणेशाष्टकम् सर्वे ऊचुः यतोऽनन्तशक्तेरनन्ताश्च जीवा यतो निर्गुणादप्रमेया गुणास्ते यतो भाति सर्वन् त्रिधा भेदभिन्नं सदातं गणेशं नमामो भजामः यतश्चाविरासीज्जगत्सर्वमेतत् तथाब्जासनो विश्वगो विश्वगोप्ता तथेन्द्रादयो देवसंघा मनुष्यास् सदातं गणेशं नमामो भजामः यतो वह्निभानोद्भवो भूर्जलै च यतः सागराश्चन्द्रमा व्योमवायुः यतस्थावराजङ्गमा वृक्षसङ्गास्सदातं गणेशं नमामो भजामः यतो दानवाक् किन्नरा यक्षसङ्घा यतश्चारणावारणाश्वापदाश्च यतः पक्षिकीटा यतो वीरुधश्च सदातं गणेशं नमामो भजामः यतो बुद्धिरज्ञाननाशो मुमुक्षोर्यतः सम्पदो भक्तसन्तोषिका स्युः यतो विघ्ननाशो यतः कार्यसिद्धिस्सदातं गणेशं नमामो भजामः यतः पुत्रसम्पद्यतो वाञ्छितार्थो यतो भक्तविघ्नास्तथानेकरूपाः यतः शोकमोहौ यतः काम एव सदातं गणेशं नमामो भजामः यतोऽनन्तशक्तिः सशेषो बभूव धराधारणेनेकरूपे च शक्तः यतोऽनेकधा स्वर्गलोकाहिनाना सदातं गणेशं नमामो भजामः यतो वेदवाचो विकुण्ठामनोभिस्सदा नेति नेतीति यत्ता गृणन्ति परब्रह्मरूपै चिदानन्दभूतं सदातं गणेशं नमामो भजामः श्रीगणेश उवाच पुनरुचे गणाधीशस्तोत्रमेतत्पठेन्नरः त्रिसन्ध्यं त्रिदिनन्तस्य सर्वं कार्यं भविष्यति यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम् अष्टवारैश्चतुर्थ्यां तु सोऽष्टसिद्धिरवाप्नुयात् यः पठेन्मासमात्रं तु दशवारं दिने दिने समोचयेद्बन्धगतं राजवध्यन्न संशयः विद्याकामो लभेद्विद्याम् पुत्रार्थी पुत्रमाप्नुयात् वाञ्छिताल्लभते सर्वा नेकविंशतिवारतः यो जपेत् परया भक्त्या गजानन परो नरः एवमुक्त्वा ततो देवश् चान्तर्धानं गतः प्रभुः। इति श्री गणेश पुराणे उपासनाखंडे श्री गणेशाष्टकं संपूर्णम्।